वन्दे श्रीरमणर्षेः आचार्यस्य पदाब्जम् यो मे दर्शयदीशम् भान्तं ध्वान्तमतीत्य कथयानिजया कलुषं हरता करुणानिधिनारुणशैलजुषा खगवाहनभाषिततत्त्वविदा वृषवाहनमौनरहस्यभृता गणरान्मुखसूरिसभा गुरुणा गुणसञ्चयरत्नमहोदधिना घनगूढसहस्रकरेण यथा तनुकञ्चुकगुप्तमहामहसा चतुरेण चलेन्द्रियनिग्रहणे पटुना परकीयगुणग्रहणे छलवर्जितमौनसमाधिजुषा बलतर्जितभीकरकामरुषा कठरं समये परिपूरयता कठिनं व्रतमद्रितटे चरता झषकेतनशस्त्रदुरापहृदा कृषिमात्मविबोधविधौ दधता पवभीकरवारिनिधिं तरता करतामरसेन सुपात्रवता स्वदृशाधिकशीतलकान्तिभृता भयमङ्घ्रिसरोजजुषां हरता नमतामतिभक्तिमतां निधिना गणतापविधूनन सन्निधिना यतिधर्मततिं परिपालयता परितश्च तमो विनिवारयता फणिनायकवर्ण्यगुणौघभृता फणिति प्रियसत्यहिता भणता बहुमानवशादयता सुखिताम् अवमानततेरविदूनवता यतिनामधितेन कुशाग्रलसन् मतिना धृतिनाशितचित् भुवा लहरीं प्रमदस्य सदा वहता निहतान्तरशात्रवसं हतिना भगवत्पदमन्यजनासुलभं स्वगुणैरधिगत्य परं जयता ममतारहितेन हितेन सतां निहितेन गणं प्रभुना हृदये तरणीधरजाङ्कमपि त्यजता नीतलवासितमोधुतये नरवेशभृता नगरन्ध्रकृता रमणेन सनाथमिदं भुवनम् परदेशिनेव धवलेन वाससः शकलेन वेष्टितकटिविशोभिना वरदेशिकेन नरवेशधारिणा शिखिवाहनेन गुरुमज्जगद्भवे अतीतगुणजालाय नैष्ठिकब्रह्मचारिणे नमो माया मनुष्याय गुरवे तारकारये यानायात्र न केकिनाङ्कुलपतिस्नानायन स्वर्णदी पानाय क्षितिबृन्महेन्द्रदुहितुर्नस्तन्यदुग्धामृतम् गानाय प्रमथेश्वरासवयसो नैवात्र वीणाभृतो वासं शोणगिरौ करोषि भगवन् क्रौञ्चाद्रिभेत्त कुतः एकं वक्त्रमुमाङ्कवासविरह पाणौ न शक्त्यायुधम् मर्त्यत्वं न पताकिनी च पृतना पार्श्वद्वये नाकिनां वेशोलं पुनरेशमुग्धनयन प्रच्छादने भूजुषाम् अन्तर्धानमुपैषितारकरिपोक्वस्तन्यदायादतः केचित् योगविदां पुरःसर इति प्रज्ञानि बुद्ध्या परे साधु कश्चिदितीतरे गुरुधिया केऽप्यङ्घ्रिपद्मं तव सेवन्ते रमणाभिधानमनुजक्षेमाय जातक्षितौ द्वित्रास्त्वाङ्गिरिजां कपीठनिलयं जानन्ति देवं गुहम् ओङ्कारार्थमुपादिशो भगवते वाणि मनोहारिणे तातायाप्युपदेष्टुमुद्यतमभूत् किञ्चित् त्वदीयं मुखम् ज्येष्ठस्याद्य सहोदरस्य गुरुताम् प्राप्तोऽसि धीगौरवात् सुब्रह्मण्यकनिष्ठतामपि गतः सर्वाधिकस्त्वम् गुणैः यत्पूर्वम् श्रुतिपारदर्शिधिषणो द्वैपायनोऽद्यारुहत् पश्चाद्बोधकलाविधूततिमिरशङ्कापहः शङ्करः यत्सम्प्रज्ञखिलावनीतलजुषामाचार्यसिंहासनम् देवत्वाम् प्रतिवीक्षते नरतनो गीर्वाणसेनापते धर्मे नाशमुपागते त्रिभुवने पर्याकुले पापतः प्रज्ञाने परितो गिरां पतिमुधा सञ्चार्यमाणे जनैः सद्भावे परमेश्वरस्य च पितुः सन्देहडोलाङ्गते द्वीपकैतवमर्त्यके कितुरगत्वामन्तराकस्सताम् वैराग्यं तव वित्तमस्तु करुणां शक्नोषि हातुं कथम् दुह्यस्ते स्तु समुद्यमपितृपदध्यानं च किं तादृशम् कामस्तेस्तु विगर्हितो विनमताम् रक्षा च किम् गर्हिता स्कन्दच्छद्ममनुष्य किम् नु समयम् कञ्चित् समुद्वीक्षसे दूरम् याहि कुवादधर्म वृषते नेत परम् पङ्गुता दुर्भ्रान्ते भुवनम् जहीहि परितो वर्धस्व संसत्सताम् सोदर्येण समन्वितो भुवमिमाम् प्राप्तो गुरुग्रामणीः शूरान्तः पुरनेत्रविभ्रमहरो देवो भवानीसुतः जन्मस्थानमवाप्य गुप्तमहमो यो भेदमाधूतवान् भूतानाम् चरताम् पृथक् विदधियामात्मैव यो भासते देहम् सर्वमिदम् जगच्च विभवादाक्रम्य यः प्रोल्लसत्येकस्तम् गुरुमूर्तिमानमतरेल्लम्बोदर भ्रातरम् अन्तर्यश्च बहिर्विधूततिमिरम् ज्योतिर्मयम् शाश्वतम् स्थानम् प्राप्य विराजते विनमतामज्ञानमुन्मूलयन् पश्य विश्वमपीदमुल्लसति यो विश्वस्य पारे परः तस्मै श्रीरमणाय लोकगुरवे शोकस्य हन्त्रे नमः प्रसरतादित शुभविलोकितम् रमणते सकृत् फलतु मे कृतम् रमण जन्मिना मयि भवान् गुरुः अभिद आशयस्तव महानुरुः जगदहं परस्फुरति मे त्रयम् सदभिदम् गिरा तव विसंशयम् त्वदुपदेशतो गलति संविदा मयि निरन्यया सदहमोर्भिदा अहमियोऽन्तरस्तममलम् हृदि अनुभवे मभोस्तव कृपा यदि न करुणागुणस्तव विदाम्पते हृदय तेजसा सहज भैवते तव तनुर्ज्वलत्यनघ विद्युता तव दृगा तथा लसति भास्वता कबलितम् मनस्तव विभो हृदा त्वमसि सन्ततम् विलसितो मुदा भुवन भूपतेर्भगवतः कृते भवसि पाचको यमवताम् पते नरपशूनिमा नगमिताडयन् परशिवौदनम् वितनुषेपचन् तिमिराणि न केवलम् वचोभिः కరుణాపాంగ విలోకితైశ్చ నృణాం హృదయే ప్రసరంతి మర్దయంతం భగవంతం రమణం గురుం నమామి. భవజలనిధిం గాహం గాహం చిరాదలసాలసాన్ పదజలరుహద్వంద్వద్వీపం శ్రుతాంస్తవ సంప్రతి రమణ భగవన్ కళ్యాణానాం నికేతన పాయినః సదయ దయయా సిక్తైర్భక్తానపాంగ విలోకితైః యది న జననీ స్తన్యం దద్యాత్ శిశోర్బత కా గతిః యది పశుపతి క్రోధం కుర్యాత్ పశోరవనం కుతః యది పదజుషామాచార్యత్వం నిహంసి న సంశయం ప్రమశత పరా భూతా ఏతే తరంతు భవం కథం విశద హసితే పూర్ణా శాంతి సుధాకర సోదరే స్థిర ప్రతులయో పూర్ణా శక్తిర్దృశోరతులార్చిషో హృదయ కమలే నిత్యామిష్టా బహిష్ట శరత్ ప్రభే రమణ భగవన్ కోవా మౌని సమస్తవ భూతలే దేవీ శక్తిరియం దృశో శృత జన త్వాంతక్షయాధాయిని దేవీ శ్రీరియమంబుజాక్షి మహిషి వక్త్రే సహస్రచ్ఛదే దేవీ బ్రహ్మవధూరియం విజయతే వ్యాహార గూఢాపరా విశ్వాచార్య మహానుభావ రమణ త్వాం స్తౌతుక ప్రాకృతః సోహం జాతో రమణ భగవన్ పాదయోస్తేదవిష్టో యద్యప్యస్మిన్ మహతి శమయే శక్తిలాస్యే ప్రవృత్తే సూర్యస్యేవ జ్వలితమహసో దూరగాం నాథ శక్తిం విశ్వస్యాగ్ర్యాం తవ మమ మనో వీత దుఃఖం తథాపి విశ్వస్యాగ్ర్యాం తవ మమ మనో వీత దుఃఖం తథాపి తద్భాగధేయమసమానమనేకమౌని వాసార్జితం శృతివృతః ఖలు లోహితస్య అంగీచకార భగవాన్ రమణో మహర్షిః అన్యేషు సత్సు యదిమం బహుషు స్థలేషు శాంతిర్నితాంతమధికా పరమాస్య శక్తిః వైరాగ్యమద్భుతతమం కరుణాతు సాంద్రా జ్ఞానం నిరస్తగుహనం మధురం చ వృత్తం నృణాం నిదర్శనమయం రమణో మహర్షిః.